याते पादसरोजधूलिरनिशं ब्रह्मादिभिर्निस्पृहैः भक्त्या सन्नतकन्धरैः सकुतुकं सन्धार्यमाणा हरे या विश्वं प्रपुनाति जालम् अचिरात् संशोषयत्यं हसा सा मां हीनगुणं पुनातु नितरा श्रीपद्मनाभान्वहम् सत्त्वैकप्रवणाशया मुनिवरा वेदैः स्तुवन्तः परैः त्वन्माहात्म्यपयो निदेहि इक परं नाद्यापि पारङ्गतः एवं सत्यगमल्पबुद्धिरवशः स्तोतुं कथं शक्नुया त्वत्कारुण्यामृते हरे तरतिकः पोतं विना सागरम् तस्माच्चिन्दिमदीयमोहम् अखिलं संसारबन्धावहं भक्तिं त्वत्पदयोर्दिश स्थिरतरा सर्वापद् उन्मीलिनी वाणीं त्वत्पदवर्णनी पटुतमा विद्वज्जनाक्लादिनी तेहि त्वत्पदसेवकाय ननु मे कारुण्यवारां निदे येनेदं भुवनं ततं स्वभलतो यस्याज्ञयो दैत्यः नाथो वात्यनिलो दहत्यपिशिकिः सर्वेऽपि यन्निर्मिताः यश्चेदं सकलं जगत्स्वझटरे दत्ते च कल्पावदौ तत्तादृग्विभवे त्वयि प्रमुदिते किं वा दुरापं नृणा भक्तानाम् अखिलेप्सितार्थघटने बद्धोद्यमस्त्वं हरे नित्यं कल्विति बोध्यमस्तु ति बहुशो देव प्रमाणं मम नो चेद्व्यासवचस्तवैव वचनं वेदोपगीतं वचः आरत्याजनवादवद् बत भवेन्मित्या रमावल्लभा इन्द्रद्युम्न नृपकरीन्द्रजननं प्राप्तोत शापेन वै नक्राक्रान्तपदो विमोचनपटुः नाभूत्सहस्रं समः भूयस्त्वाम् अयम् अर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं सारूप्यं समवापदेव भवतो न क्रोऽपि गन्धर्वता पापः कश्चित् अजामिलाख्यधरणी देवो वसत्सन्ततम् स्वैरिण्या सह काममोहितमतिः त्वां विस्मरन्मुक्तिदम् अन्ते चाह्वयतीशभीतहृदयो नारायणेत्यात्मजं नीतस्सोऽपि भवद्भटैस्तव पदं संहृद्ययाम्यान् भटा पाञ्चाली नृपसन्निधौ कलमतिः दुःशासनपुष्पिणी आकर्षश्चिकुरेण दीनवदना वासः समाक्षिप्तवान् यावत् सा भुवनैकबन्धुमवशा सस्मारलज्जाकुला क्रोशन्ती व्यतनोपटौकममलम् तस्यास्त्वनन्तं हरे या मार्देन तु पिङ्गला तव पदं प्राप्ता हि वाराङ्गना बालः पञ्चवयो युतो ध्रुवपदं च औत्थानपादिर्गतः यातश्चापि मृकण्डुमौनितनयः शौरे चिरञ्जीवितं नाहं वक्तुमिह क्षमस्तव कृपालभ्यं शुभं प्राणिना एवं भक्तजनौघकल्पकतरुं तं त्वां भजन्तः क्षणं पापिष्टा अपि मुक्तिमार्गम् अमलं केकेन याता विभो सत्त्वं मामपि तावकेन चरणे भक्तं विदायानतं स्यानन्दूरपुरेश पालय मुदा तापान् ममापाकुरू